चन्दनलेपितागं महोरसं दिव्यमयूर वाहनं रुद्रस्य सूनुं सुरसैन्यनादं ब्रह्मण्य देवं शरणं प्रपद्ये।
ज्वल्यमानं सुरवृन्दवन्द्यं कुमारधारातडमन्दिरस्थम् कन्दर्परूपं कमनीयगात्रम् ब्रह्म प्रपद्ये।
द्विषड्भुजं द्वादशदिव्यनेत्रं त्रयीतनुं शूलमसिं दधानं शेषावतारं कमनीयरूपम् ब्रह्मण्यदेवं शरणं प्रपद्ये।
तेजस्विनं देवगणाभिवन्द्यं येनाङ्गगौरीतनयं कुमारं स्कन्दं विशाखं सततं ततम्